నమస్తే పురుషం చాద్యం ఈశ్వరం ప్రతితే పరం అలక్ష్య సర్వభూతానాం అంతర్బహిరవస్థితం మాయా జవనికాచ్ఛన్య మగ్యాధోఖజమభ్యం న లక్ష్యసి మూలధీష్యాం నటో నాట్యధర్మయథా తథా పరమహంసానాం మునీనాం అమలాత్మనా తథా పరమహంసానాం మునీనాం అమలాత్మనాం భక్తియోగ విధానార్థం కథం పశ్యేమ స్త్రియం నమస్తే పురుషం చాద్యం ఈశ్వరం ప్రకృతే పరం అలక్ష్యం సర్వభూతానాం అంతర్బహిరవస్థితం కృష్ణాయ వాసుదేవాయ దేవకీ నందనాయ చ కృష్ణాయ వాసుదేవాయ దేవకీ నందనాయ చ నంద గోపకుమారాయ గోవిందాయ నమ పంకజనాభాయ నమ పంకజమాలినే నమ పంకజనేత్రాయ నమస్తే పంకజాంఘ్రై నమస్తే పురుషం చాద్యం ఈశ్వరం ప్రతితే పరం అలక్ష్యం సర్వభూతానాం అంతర్బహిరవస్థితం యథా ఋషికేశం ఖలేన దేవకీ కంసేనరుధ్యాశీచిరం సుచార్చితాం విమోచితాహం చ సహాత్మజా విభో తయైవ నాథేన మోహో విపద్గణాం భీషాణ మహాగ్నే పురుషాదర్శన భీషాన్ మహాగ్నే పురుషాదర్శనాం అసత్సభాయా వనవాస క్లేశతం నిధేనేక మహారథాస్తతో నిధేనేక మహారథాస్త్రతం మిధే మిధేనేక మహారథాస్త్రతం ద్రౌణస్త్రతోశ్చాత్మ హరేభిః రక్షితాః మిధే మిధేనేక మహారథాస్త్రతం ద్రౌణస్త్రతోశ్చాత్మ హరేభిరక్షితాం నమస్తే పురుషస్తాద్యం ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् विपदाः सन्तु तासस्सं तत्र तत्र जगद्गुरु भवतद्दर्शनज्ञा स्यात् अपुनार्भवदर्शन जन्मैनिषज्जसुतश्रीभिः रेधमानमदापुमान् नैवार्हता भीधातुं वै तामकिञ्चन गोचरम् नमस्ते पुरुषाद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिर्नमस्थितम् नमो किञ्चन वित्ताय निर्वृत्त्या गुणवित्तै आत्मरामाय शान्ताय कैवल्यपतये नमः नमस्ते पुरुषसाध्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् मन्येतां कालमीशानम् अनादि धनं विभुम् समं चरन्तं सर्वत्र भूतानां जन्मिथकलिः न वेद कश्चिद्भगवं चिकीर्षितम् न वेद कश्चिद्भगवं चिकीर्षितम् तवेहमानस्य नृणां विडम्बनम् तवेहमानस्य नृणां विडम्बनम् न यस्य कश्चिद्दयितोऽस्ति कर्हिषि दृष्टश्च जस्मिन् विषमामतीर्णाम् जन्म कर्म च विश्वात्मन् जन्म कर्म च विश्वात्मन् न यस्य कर्तुरात्मनः जन्मी शिशुर्जादशु तदत्तन्त विडम्बनम् जन्म कर्म च विश्वात्मन् न यस्या कर्तुरात्मनः जन्मी शिशुर्जादशु तदत्तन्त विडम्बनम् नमस्ते पुरुषसाद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् नमस्ते पुरुषसाद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् गुप्या ददेतै कृतगासिदाम तावन् जाते दशाश्रुकनिलान् जनसम्भ्रमाक्ष्यम् गुप्या ददेतै कृतगा भयभावनयास्थितस्य सामां विमोहयति रपीतनिभेति वक्त्रं नीय भयभावनया स्थितस्य सामां विमोहति रतिजद्विभेति नमस्ते पुरुषात्याज्ञम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषं चाद्यम् नमस्ते पुरुषात्याज्ञम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् केचिदाहुरजं जातम् सुन्नश्लोकस्य कीर्तये यदा प्रिया शान्नवाये मलयस्येव चन्दनम् केचिदाहुरजं जातम् पुण्यश्लोकस्य कीर्तये यदो प्रिय शान्नवाये मलयस्येव चन्दनम् अपरे वसुदेवस्य देवक्यां जाचित भगा अजस्तमस्य क्षीमाय बधाय च शरद्विषाम् भारावतरणायनि भुवो नाभुवो दधौ क्षीरन्त्या भूरिभारेण जातोयात्मा भूयार्थितम् भवेस्मि कृष्णमानानाम् अविद्या कामकर्मभि श्रवणस्मरणार्हाणि करिष्यन्ति केचन नमस्ते पुरुषताद्यम् ईशनं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्वहीरवस्थितम् चिन्नन्ति गायन्ति गिनन्तभीक्ष्णशा सिन्नन्ति गायन्ति सिन्नन्ति गायन्ति गिनन्तभीक्ष्णशा स्मरन्ति नन्दन्ति तवेहितं जनः स एव पश्यन्त चिरेण तावकम् मम प्रवाहो परमं पदाम्बुजम् त एव पश्यन् सचिरेण तावकम् मम प्रवाहो परमं पदाम्बुजम् अपार्दनस्तं सकृतेहित प्रभो जिहासशीशीदोजीविना जीषां न चान्यं भवत पदाम्बुज परायणं राजसंयोजितां हसाम् अपार्दनस्तं सकृतेहितप्रभो जिहासशीशी सुहृदोनुजीविना येषां न चान्यं भवतोपदाम्बुज परायणं राजसुयोजितां हसाम् के वयं नामरूपाभ्यं यदुभिः सह पाण्डवा भवतो दर्शन ज्योरिषि ऋषिकाणां निवेशितु निरंशविष्यति तत्र यथेदानीं गदाधरम् तत्पादैरङ्किता भाति सलक्षणा विलक्षतै इमे जनपदा स्मृध्यां सुपक्वौ सद्भिरुधां वनाद्री नदुदुन्नन्तं भीदन्ते तव वीक्षितां अथो विशेष विश्वात्मन् विश्वामुते सकेष्मे स्नेहोपासमिमां सिद्धि वीरं पाण्डुसुवृष्णिषु त्वयि मे नन्ना विषया मथुर्मधुपते सखी रतिमोद्वहता दध्या गङ्गो वौ गामुदन्नती श्रीकृष्णा कृष्णसखा वृष्णसाभावनिध्रु ग्राजन्नवंशदहनानपवर्गवीर्यम् गोविन्दम् गोविजासुरार्तिया हरावतारम् योगेश्वराखिलगुरो भगवन् नमस्ते श्रीकृष्णा कृष्णसखा विश्वासाभावनिध्रु राजन्नवंश दहना नभवकबीजम् गोविन्दम् गोदिजसुरार्ती रावतारम् योगेश्वर अखिलगुणो भगवन् नमस्ते नमस्ते पुरुषं साध्यं ईशरं प्रकृते परम् मलक्ष्यां सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषसाध्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् कृष्णाय वासुदेवाय देवकीनन्दनाय च कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमो पङ्कजनाभाय नमः पङ्कजमालिनी नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमः पङ्कजनाभाय नमः पङ्कजमालिनी नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमस्ते पुरुषस्याद्यम् ईश्वरम् प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषसाधनम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्